स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः असीमम् आनन्दभरं प्रपन्नाः महान्तमापुः मदमम्बुजाक्ष्यः निलीयते सौ मयि मय्यमायं रमापतिः विश्वमनोभिरामः इति स्म सर्वाः कलिताभिमानाः निरीक्ष गोविन्द तिरोहितो भूः राधाभिधां तावत् अजातगर्वाम् अतिप्रियां गोपवधूं मुरारे भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः वने वने त्वां परिमार्गयन्त्यः विषादमापुः भगवन् अपारं हाचूत हाचम्पककर्णिकारा हामल्लिके मालति वालवल्यः किं वीक्षितो नो हृदयैकचोरः इत्यादिताः त्वत्प्रवणाः विलेपुः निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेति आकुलमालपन्ति त्वां भावनाचक्षुषि वीक्ष्य काचित् तापं सखीनां द्विगुणीचकार त्वदात्मिकास्ताः यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि विचित्यभूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधां ततः समं ताः पिपिने समन्तात् तमोऽवतारावधि मार्गयन्त्यः पुनर्विमिश्राः यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते तथा व्यथा सङ्कुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो जगत्त्रयी मोहनमोहनात्मा त्वं प्रादुरासीः अयि मन्दहासी सन्दिग्धसन्दर्शनम् आत्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीं किं किं न चक्रुः प्रमदातिभारात् सत्त्वं गदात् पालय मारुतेशा। ओं तत्सदिति श्रीमन्नारायणीये सप्तषष्टितमं दशकं समाप्तं। श्रीहरये नमः। रमा रमण गोविन्दा गोविन्दा। श्रीकृष्णार्पणमस्तु।